इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य षष्ठ चरणीय मतदानम् अद्य सम्पन्नम्। एतस्मिन् चरणे षड् राज्यानां द्वयोः केन्द्रशासित प्रदेशयोः अष्टपञ्चाशदासनेभ्यः मतदानं सञ्जातम्। ओडिशा विधानसभायाः द्विचत्वारिंशदासनेभ्यः मतदानम् अपि तृतीय चरणेऽस्मिन् समनुष्ठितम्। सामान्य निर्वाचनस्य सप्तम अन्तिम चरणाय प्रचाराभियानं नैर्यन्तर्येण प्रवर्धते। रिमल इति नामधेयकस्य चक्रवातस्य बांग्लादेश पश्चिम बंगालस्य तटीय क्षेत्रे श्वः मध्यरात्रिं यावत् भीषणं रूपसंधारणस्य संभावना वर्तते। अपि च दक्षिण कोरिया देशे धनुर्विद्या विश्व चषक प्रतियोगितायाः द्वितीय चरणे भारतीय महिला दलेन स्वर्ण पदकं विजितम्। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य षष्ठ चरणीय मतदानम् अद्य सम्पन्नम्। एतस्मिन् चरणे षड् राज्यानां द्वयोः केन्द्रशासित प्रदेशयोः अष्टपञ्चाशद् आसनेभ्यः मतदानं सञ्जातम्। अस्मिन् चरणे बिहार राज्यस्य अष्ट, हरियाणायाः सर्वाणि दश, जम्मू कश्मीरस्य एकं, झारखण्डस्य चत्वारि, दिल्ल्याः सर्वाणि सप्त, ओडिशायाः षट्, उत्तरप्रदेशस्य चतुर्दश, पश्चिमबंगालस्य अष्ट आसनानि सम्मिलितानि सन्ति। मतदानं प्रातः सप्तवादनतः समारभ्य सायं षड्वादनं यावत् प्रचलितम्। मध्याहे त्रिवादनं यावत् नवचत्वारिंशत् मतदातारः मतदान अभ्यासं कृतवन्तः। अस्मिन् चरणे आहत्य नवाशीत्यधिकाष्टशतं प्रत्याशिनः समराङ्गणे सन्ति। येषां प्रमुख प्रत्याशिनां भाग्य निर्णयो भविष्यति। तेषु वरिष्ठ भाजपा नेता मेनका गांधी, मनोहरलाल खट्टरः, मनोज तिवारी, कांग्रेसनेतारः दीपेन्द्र सिंह हुड्डा, कुमारी शैलजा, राजबब्बरः, कन्हैया कुमारोऽपि वर्तन्ते। इतदतिरिच्य ओडिशा विधानसभायाः द्विचत्वारिंशद् आसनेभ्यः मतदानम् अपि अस्मिन्नेव चरणे भवति। वरिष्ठ कांग्रेसनेत्री सोनिया गांधी, राहुल गांधी, प्रियंका गांधी, केन्द्रीय मन्त्री डॉ एस जयशंकरः, हरदीप पुरी, दिल्ल्याश्च मन्त्री, आप नेत्री च आतिशी च दिल्ल्याः विभिन्नेष् मतदातृकेन्द्रेष् स्वीय मताधिकारस्य प्रयोगं कृतवन्तः। उपराष्ट्रपतिना जगदीप धनखड़ः प्रोक्तवान् यत् मतदानं कर्तव्यं शक्तिरपि वर्तते। मतदान अनन्तरं अद्य नवदिल्ल्यां वार्ताहरान् अभिभाषयता उपराष्ट्रपतिना कथितं यत् भारतं विश्वस्य अतिजीवन्त क्रियाशील प्रभावी लोकतन्त्रदेशो वर्तते। मुख्य निर्वाचनायुक्तेन राजीव कुमारेण विनिवेदितं यत् लोकतन्त्रस्य अस्मिन् पर्वणि सर्वे मतदातारः मतदानं कुर्युः। लोकसभा निर्वाचनस्य षष्ठ चरणस्य मतदानं स्थले सर्वाः व्यवस्थाः अपि कृताः। अन्तिम सप्तम चरणात्मकीय लोकसभा निर्वाचनार्थं प्रचाराभियानं प्रचल्यते। दलीय प्रमुखाः राजनेतारः स्वीय दलं विजेतुं कृतसंकल्पाः दरीदृश्यन्ते। अस्मिन् सप्तम चरणीय मतदानाय सप्तपञ्चाशत् संसदीय विधानसभाक्षेत्रार्थं मतदानं भविष्यति। एतानि मतदानानि सप्तराज्येष् केन्द्रप्रदेशे च भविष्यन्ति। जूनमासे प्रथमदिनांके मतदानं भविष्यति। निर्वाचन प्रांगणे च आहत्य चतुरधिक नवशत प्रत्याशिनः वर्तन्ते। प्रधानमन्त्री, भारतीय जनता पार्टीति दलस्य प्रमुखश्च श्रीनरेन्द्र मोदी पाटलिपुत्रे कर्णाटक संसदीय विधानसभा क्षेत्रेष् च जनसभा सम्बोधयति। आकाशवाणी वार्ताहरेण संसूचितं यत् उत्तरप्रदेश मुख्यमन्त्री, वरिष्ठ भारतीय जनता पार्टीति दलस्य नेता च योगी आदित्यनाथः सीलमपुर, बलिया, चन्दौली क्षेत्रेष् जनसभा सम्बोधयति। कांग्रेस सचिवा प्रियंका गांधी, समाजवादी दलस्य राष्ट्रिय अध्यक्षः अखिलेश यादवः अपि गोरखपुरे जनसभा सम्बोधयति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशेऽपि उपलब्धो भविष्यति। ऋतुविभागेन प्रतिपादितं यत् बंगालप्रदेशस्य पूर्व मध्य उपत्यकायाः पार्श्वे अद्य सायं यावत् चक्रवातीय झंझावातस्य आशंका वर्तते। विभागानुसारेण रिमल इति नामधेयकस्य चक्रवातस्य बांग्लादेश पश्चिम बंगालस्य तटीय क्षेत्रं श्वः मध्यरात्रिं यावत् भीषण रूप संधारणस्य संभावनापि विद्यते। स्थितिमिदम् आलक्ष्य भीषणवृष्टेः आशंका अपि वर्तते। ओडिशा प्रदेशेऽपि भीषणवृष्टेः संचेतना सम्प्रसारितास्ति। पापुआ न्यूगिनी इत्यस्य उत्तरी क्षेत्रे समायातेन एकस्मिन् विनाशकारी भूस्खलनेन त्रिशताधिकाः जनाः मृताः सूच्यन्ते। ह्यः राजधान्यां पोर्ट मेरस्बी स्थलात् 6 किलोमीटर उत्तर पश्चिम प्रान्ते कुआलनम ग्रामे संजाते भूस्खलनेन सहस्राधिकाः गृहाणि ध्वंसितानि इति सूच्यन्ते। उत्तराखण्डराज्ये चमोली जनपदे स्थितस्य प्रसिद्ध सिख तीर्थस्थलस्य गुरुद्वारा हेमकुण्ड सहित इत्याख्यस्य द्वारम् अद्य प्रातः पारम्परिक अनुष्ठानेन सह श्रद्धालूनां कृते समुद्घाटितम्। हेमकुण्ड साहिब इत्याख्यस्य समुचित सुरक्षा यात्रां सुनिश्चेतुं राज्य प्रशासन जनपद प्रशासनाभ्यां तीर्थयात्रावधौ व्यापकी व्यवस्था समनुष्ठिता। तीर्थयात्रिणां सुरक्षां सुनिश्चित्य यात्रायाः प्रारम्भिकेषु दिवसेषु प्रतिदिनं केवलं 35% श्रद्धालवः एव दर्शनाभिलाषिणः भवितुं शक्नुवन्ति। चेन्नई अण्डमानयोः एयर इंडिया विमान सेवा आदिनं यावत् स्थगिता। एकस्य वक्तव्यानुसारि चक्रवातस्य रिमल इत्यस्य कारणेन कोलकाता अण्डमानयोर्मध्ये आन्ध्रतः पोर्ट ब्लेयर पर्यन्तं सेवाः आगामिनां घोषणां यावत् निरस्तीकृताः, येन हि अनेके यात्रिणः चेन्नई विमानपत्तनस्थानके अवरुद्धाः सन्ति। अन्ताराष्ट्रिय न्यायालयेन इस्राइल देशः गाजापट्टिकां निकषा दक्षिणीय नगरे रफा इत्यत्र विवादास्पद सैन्य अभियानस्य त्वरितमेव रोद्धुम् आदेशः प्रदत्तः। पीठासीनः न्यायाधीशः नवा फसलामः ह्यः कथितवान् यत् न्यायालयद्वारा विगते समये इस्राइल देशाय एतस्मिन् संशोधनाय पदक्षेपोत्थापनस्य आदेशानन्तरमेव गजापट्टिकायां स्थितिः प्रतिकूला जाता। इस्राइल देशीयेन न्यायालयस्य एषः निर्णयः निरस्तीकृतः। संकेतोऽपि प्रदत्तः यत् असौ अस्य संचालनस्य रोधनाय कस्यापि आदेशस्य अवहेलनां नैव करिष्यति। इस्राइलेन उक्तं यत् गाजाक्षेत्रे तस्य सैन्य आक्रमणम् अन्ताराष्ट्रिय विधेः अनुसारमेव आसीत्। पाकिस्तान देशे सहस्राधिक मात्रायां उष्ण लहर्याः कारणात् बहवः जनाः दुष्प्रभाविताः जाताः। पीडिताः जनाः चिकित्सालयेषु उपचाराधीनाः वर्तन्ते। एतादृशः स्थितयः आगामिषु केषुचित् दिवसेषु दक्षिणप्रान्तेषु प्रवर्तन्ते एव इति सम्भाव्यते। दक्षिण कोरिया देशे धनुर्विद्या विश्व चषक प्रतियोगितायाः द्वितीय चरणे महिला दलेन स्वर्णपदकं विजितमस्ति। क्वालालम्पुर नगरे मलेशिया मास्टर्स बैडमिंटन प्रतिस्पर्धायाः महिला एकल प्रागुपान्त्यचक्रे अद्य भारतीय क्रीडिका पीवी सिन्धुः थाईलैंड देशीय बुसानन ओ बेन रुंग फान समं स्पर्धिष्यति। मालदीव देशः भारतस्य रूपे इत्याख्यस्याः सेवायाः प्रवर्तनाय निश्चितो जातः। अयं पदक्षेपः मालदीवस्य रूफिया इत्यस्य सबलीकरण रूपे दृश्यते। अत्रावधौ प्रवर्तनाय समयसीमा नैव समुद्घोषिता। तत्सम्बद्ध स्थानीय वार्ता प्रतिवेदनेषु मालदीवस्य आर्थिक विकास व्यापार मन्त्री इति संसूचितम्।